भगवते वासुदेवाय अथ द्वितीयोऽध्यायः संजय उवाच तं तथा कृपयाविष्टं अश्रुपूर्णाकुले क्षणं विषेदन्तं इदं वाक्यम् उवाच मधुसूदन श्रीभगवानुवाच कुतस्त्वा कस्मलम् इदं विषमे समुपस्थितम् अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरमार्जुन क्लेव्यं मा स्मगम पार्थ नैतत्त्वय उपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वो तिष्ठ परं तप अर्जुन उवाच कथं भीष्मं अहं संख्ये द्रोणं च मधुसूदन यशोभिः प्रतियोत्स्यामि पूजार्ह वरिषूदन गुरोन्नहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपि हलोके त्वार्थकामास्तु गुरुनिहैव भुञ्जीय भोगान् रुधिर प्रदिग्धा न चेत्म विद्म कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु याने वहत्वा न जिजीविषाम देव स्थिता प्रमुखे धार्तराष्ट्रा कार्पण्यदोषो पहता स्वभावा पृच्छामि त्वां धर्मसम्मूढचेता यत्श्रेयस्या निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहम् साधि मां त्वां प्रपन्नम् न हि प्रपश्यामि ममापनुदा यत्शोकमुच्छोषणम् इन्द्रियाणाम् अवाप्य भूमावसपत्नं रिद्धं राज्यं सुराणामपि चाधिपत्यम् संजय उवाच एवमुक्त्वा ऋषिकेशं गुडाकेश परं तप नयोत्स्य इति गोविन्दम् उक्त्वा तुष्णीं बभूवः तमुवाच ऋषिकेश प्रहसन्नेव भारत सेनयोरुभयोर्मध्ये विषिदन्तम् इदं वच श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादाश्च भाषसे गतासु न गतासुंश्च नानुशोचन्ति पण्डिता न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा न चैव न भविष्यामः सर्वे वयमता परम् देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ति धीरस्तत्र नमूयते मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुखदुःखदा आगमापायिनो नित्या स्थांस्थितिक्षस्वभारता यं हि नाव्यथयन्ते ते पुरुषं पुरुषार्षभा समादुःखा सुखं धीरा सोमृतत्वाय कल्पते नासतो विद्यते भावो नाभावो विद्यते शता उभयोरपि दृष्ट्वन्ता स्त्वनयोस्तत्त्वदर्शिभिः अविनाशितु तद्विद्धि येन सर्वमिदं ततं विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्ता हि मे देहा नित्यस्योक्त्या शरीरिणा अनाशिनो प्रमेयस्य तस्माद् युद्ध स्वभारत यैनं वित्ति हन्तारं यश्चैनं मन्यते हतम् उभोतो न विजानीतो नायं हन्ति न हन्यते न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूया अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेदाविनाशिनं नित्यं येनम् अजमव्ययम् कथं स पुरुष पार्थ कं घातयति हन्तिकम् वासांसि जीर्णा नियता विहाय न वानि गृह्णाति नरो पराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति न वानि देहि नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावका न चैनं क्लेदयन्त्यापो न शोषयति मारुता अच्छेद्योऽयम् अदह्योऽयम् अक्लेद्यो शोष एव च नित्यः सर्वगतस्थाणु अचलोऽयं सनातना अव्यक्तोऽयम् अचिन्त्योऽयम् अविकारोऽयमुच्यते तस्मादेवं विदित्वेनं नानुशोचितुमर्हसि अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं महाबाहो नैवं शोचितुमर्हसि जातस्य हि ध्रुवो मृत्यु ध्रुवं जन्म मृतस्य च तस्मादपरिहारे अर्थे न त्वं शोचितुमर्हसि अव्यक्तादिनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिवेदना आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवत् वदति तथैव चान्या आश्चर्यवत् चैनमन्या शृणोति श्रुत्वाप्यनं वेदन चैव कश्चि देहि नित्यम् अवध्योऽयं देहि सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि स्वधर्मम् अपि चावेक्ष्य न विकम्पितुमर्हसि धर्म्यात् युद्धात् श्रेयोऽन्यत् क्षत्रियस्य न विद्यते यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् सुखिना क्षत्रिया पार्थ लभन्ते युद्धमीदृशम् अथ चेत्त्वम् इमं धर्म्यं सङ्ग्रामं न करिष्यसि ततस्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्यां सम्भावितस्य च कीर्ति मरणाद् अतिरिच्यते भयाद्रणात् उपरतं मन्स्यन्ते त्वां महारथा येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिता निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् अतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महिं तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय सुखे दुखे समे कृत्वा लाभालाभो जयाजयो ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि एषा ते विहिता साङ्ख्ये बुद्धियोगे त्रिमां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भया व्यवसायात्मिका बुद्धि एकेह कुरु नन्दना बहुशाखायनन्ताश्च बुद्धयो व्यवसायिनां यामि मां पुष्पितां वाचं प्रवदन्त्य विपश्चिता वेदवादरता पार्थ नान्यदस्तेति वादिना कामात्मान स्वर्गपरा जन्मकर्म फलप्रदा क्रिया विशेष बहुलां भोगेश्वर गतिं प्रति भोगेश्वर प्रशक्तानां तया परितचेतसां व्यवसायात्मिका बुद्धि समाधो न विधीयते त्रैगुण्य विषया वेदा निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योग क्षेम आत्मवान् यावानर्थ उदपाने सर्वत संप्लुतोदके तावान् सर्वेषु वेदेषु ब्रह्मणस्य विजानता कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्म फलहेतु भो मा ते सङ्गोस्त्वकर्मणि योगस्थ कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यासिद्ध्यो समो भूत्वा समत्वं योग उच्यते दूरेण ह्यवरं कर्म बुद्धियोगात् धनञ्जय बुद्धौ शरणमन्विच्छ कृपणा फलहेतव बुद्धियुक्तो जहातिह उभे शुक्रे तदुष्कृते तस्माद्योगाय युज्यस्व योग कर्म सुकौशलम् कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणा जन्मबन्ध विनिर्मुक्ता पदं गच्छन्त्यनामयम् यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नाते यदा स्थास्यति निश्चला समाध अचला बुद्धि तदा योगमवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशवा स्थितधि किं प्रभासेता किमासित व्रजेत किम् श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्नेवात्मना तुष्टा स्थिता प्रज्ञस्तदोच्यते दुःखे स्वनो दिग्नमना सुखे सुविगतस्पृहा वितरागभयक्रोधा स्थितधीर्मुनिरुच्यते यः सर्वत्रान विस्नेहा तत्तत् प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा सहरते चायं कुर्मोऽङ्गान्निव सर्वशा इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देना रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यततोऽपि कौन्तेया पुरुषस्य विपश्चिता इन्द्रियाणि प्रमाथिनि हरन्ति प्रषभं मनः तानि सर्वाणि संयम्य युक्त आसीत् मत्परा वशे यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायतो विषयान् पुंसा संगस्ते सुपजायते संगात् संजायते कामा कामात् क्रोधो विजायते क्रोधाद् भवति सम्मोहा सम्मोहा स्मृतिविभ्रमा स्मृतिभ्रंशात् बुद्धिनाशा बुद्धिनाशात् प्रणश्यति रागद्वेषविमुक्तेस्तु विषयानिन्द्रियेश्चरन् आत्मवश्येर्विधेयात्मा प्रसादम् अधिगच्छति प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्न चेतसो यासु बुद्धि पर्यवतिष्ठते नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्ति अशान्तस्य कुतः सुखम् इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञां वायुर्नावम् इवाम्बसे तस्माद्यस्य महाबाहो निगृहीतानि सर्वशा इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सानि सा पश्यतो मुने आपूर्यमाणम् अचला प्रतिष्ठं समुद्रमापा प्रविशन्ति यद्वा तद्वत् कामाय प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहा निर्ममो निरहङ्कारा सशान्तिमधिगच्छति। एषा ब्राह्मीस्थिति पार्थ नयनां प्राप्य विमोह्यते। स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणं ऋच्छति। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः।